इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी सबलतया प्रोक्तवान् यत् तस्य प्रशासनस्य विकासस्य प्रतिरूपं राष्ट्रं प्रथमम् इति अस्ति, यत् तुष्टीकरणरहितं भूत्वा सन्तुष्टौ केन्द्रितं वर्तते। असौ प्रोक्तवान् यत् जनाः एतस्य प्रतिरूपस्य परीक्षणं बोधं समर्थनं च कृतवन्तः, अत एव तृतीयवारमपि प्रशासनाय जनादेशः तैः प्रदत्तः। प्रधानमन्त्रिणा ह्यः संसदः द्वयोः सदनयोः संयुक्तोपवेशने राष्ट्रपतेः द्रौपदी मुर्मू वर्यायाः अभिभाषणे धन्यवाद प्रस्तावम् अधिकृत्य राज्यसभायाम् उत्तरं प्रयच्छता इदं वक्तव्यं प्रदत्तम्। कांग्रेस दलं विरुध्य कथयन् प्रधानमन्त्री प्रोक्तवान् यत् सबका साथ सबका विकास इति प्रतिरूपं कांग्रेस दलाय दुष्करम् अस्ति, यतोहि सम्पूर्णं कांग्रेस दलं एकस्मै एव परिवाराय समर्पितम् अस्ति। असौ अग्रे प्रोक्तवान् यत् तस्य प्रशासनं विकासस्य पोषणार्थं कौशलविकासस्य वित्तीय समावेशनस्य औद्योगिकीकरणस्य च कृते प्राधान्यम् अददात्। विदेशमन्त्री डॉ एस जयशंकरः कथितवान् यत् अवैध प्रवासीनां निर्वासन प्रक्रिया अन्ताराष्ट्रिय सम्बन्धेषु सामान्यतया एकः स्वीकृतः सिद्धान्तो वर्तते। असौ दृढरूपेण अवदत् यत् विधिगत गतिशीलतायाः संवर्धनं राष्ट्राणां पारस्परिक कल्याणे निहितं वर्तते। डॉ एस जयशंकरः अमेरिकायाः भारतीय नागरिकाणां निर्वासन प्रकरणम् अधिकृत्य राज्यसभायाम् एकं वक्तव्यं प्रयच्छन् प्रोक्तवान् च यत् अवैधरूपेण निवसतां स्वकीयानां नागरिकाणां प्रत्यावर्तनं प्रत्येकं राष्ट्राय अनिवार्यं वर्तते। लोकसभायां विपक्षसदस्यानां संजात कोलाहलस्य मध्ये डॉ जयशंकरः एतादृशं वक्तव्यं दत्तवान्। तस्य वक्तव्यस्य अनन्तरं यदा कोलाहलः अन्ववर्तत तदा अध्यक्षः आदिवसपर्यन्तं सभां स्थगितवान्। रक्षामन्त्री राजनाथसिंहः अमेरिकादेशस्य च रक्षासचिवः पीट हैक्सेथ इत्येषः ह्यः भारतामेरिका रक्षासहयोग कार्याणां समीक्षां कृतवन्तौ। दूरभाषवार्तालापावधौ श्रीसिंहः श्रीहैक्सेथ इत्येतस्मै अमेरिकायाः रक्षासचिवत्वेन तस्य नियुक्तये वर्धापनानि अयच्छत्। उभौ नेतारौ द्विपक्षीय रक्षा सहभागित्वस्य प्रशंसाम् अपि च सम्बन्धान् अपि प्रबलीकृतवन्तौ। शनिवासरे भविष्यमाणायै दिल्ली विधानसभायाः मतगणनायै सर्वाः सज्जताः अन्तिमे चरणे विद्यन्ते। नवनवत्यधिक षड्शतं प्रत्याशिनां कृते आहत्य 60.42% यावत् मतदानं समनुष्ठितम्। निर्वाचनायोगेन सूचितं यत् ईवीएम इति यन्त्राणि सुदृढकक्षेषु संस्थापितानि। तदर्थम् आयोगः आरक्षाधिकारिणः सततं निरीक्षमाणाः वर्तन्ते। निर्वाचनायोगेन अग्रे प्रख्यापितं यत् मतगणनायै दिल्ल्याः सर्वेषु 11 जनपदेषु 19 मतगणना केन्द्राणि निर्मितानि। उत्तराखण्डे प्रवर्तमानासु 38तमासु राष्ट्रिय क्रीडासु भारतीय सेनायाः नीरजकुमारः 50 मीटर परिमितायां राइफल 3 पोजिशन इति पुरुषाणां स्पर्धायां स्वर्ण पदकं विजितवान्। मध्यप्रदेशस्य ऐश्वर्या प्रताप सिंह तोमरः रजत पदकं, महाराष्ट्रस्य स्वप्निल सुरेश कुसालेः च कांस्य पदकं विजितवन्तौ। पुरुषाणां क्रिकेट क्रीडायां भारतीय दलेन नागपुरे तिसृणां प्रतिस्पर्धानां श्रृंखलायाः प्रथमे एकदिवसीय द्वन्द्वे इंग्लैण्डदलं 4 स्तोभैः पराजितम्। एतेन साकमेव भारतीय दलं 1-0 इत्यंकान्तरालेन अग्रत्वं भजते। श्रृंखलायाः द्वितीया क्रीडा रविवासरे कटकनगरे क्रीडिष्यते इति वार्ताः।